Lesson 26, Exercise 1, page 220. Ye balaha bahuni dinani vidyam adhiyate na cha kimapi vidanti tan prati acharyaha brute. He balaha yuyam balivardaha ivastha parishramyantopi yuyam vidyavanto na abhavat. युष्माकं बुद्धिः नारिकेलः इव तत्र विद्या नैव प्रविशति इति. बालाः अब्रुवन् हे पिशुन यस्त्वम् अस्मान् द्वेक्षि तं त्वां वयं द्विष्महे इति. यदा रामः सीतां वने त्यजत् तदा सा भृशम् अरोदित् किन्तु पतिं न अद्विष्ट. वयं शत्रुषु न विश्वसिमः. ये जनाः अविद्यावन्तः शत्रूणां वचने विश्वसन्ति तान् पिशुना शत्रवः सुखेन घ्नन्ति. अविद्यावतः शत्रून् हत्वा पिशुना सुखेन शेरते. सर्वदा आपदः एव चिन्तयन्तो धनवन्तः न कदापि सुखेन शेरते. शत्रूणां बलं चिन्तयन्तो भूभृतः न कदापि सुखेन शेरति. ईश्वरम् एव पश्यन्तः मुनयो न कदापि शेरति. ते सर्वदा ईश्वरम् एव शंसन्तः वने आसते. भगवान् बुद्धः ईश्वरः न अस्ति इति ब्रुवन् सर्वस्य दुःखस्य अन्तं पश्यन् वने आस्ते. ये जनान् शासति ते शास्तारः भवन्ति. बुद्धः जनानां शास्ता. ये तं शास्तारं मन्यन्ते ते अविद्यां घ्नन्ति. पिता गृहे आस्ते इति मन्यमानाः बालाः सुखेन अस्वपन्. पिशुनास्तु रात्रौ आगत्य गृहाणि दग्धुमिच्छन्तः नगरं प्राविशन्. केचित् पिशुनाः आयान्ति इति पिता अवेत्. बालेभ्यश्च अब्रूत हे बालाः पिशुनाः अस्मान् हन्तुम् आयान्तीति वेद्मि. सर्वे वयम् अस्माद् गृहात् बहिः निगूढाः स्थास्यामः. यदा च पिशुनाः अस्मान् हन्तुम् गृहम् प्रवेक्ष्यन्ति तदा वयम् इदम् गृहम् अनलेन धक्ष्यामः इति. एवं स पिता तस्य पुत्राश्च सर्वान् पिशुनान् अघ्नन्. यः मातरि न विश्वसिति तस्मिन् माता कथं विश्वस्यात्. यः भूभृतं हन्यात् तं वयं सर्वे हन्याम इति वीराः अब्रुवन्. किन्तु स्वपन्तं नृपं कश्चित् सर्पः अहन्. यः श्वसिति स जीवति यः न जीवति स न श्वसिति. नृपो दासेभ्यो ब्रवीत् प्रियोऽयं मे शुकः. स मृत इति यो मां ब्रूयात् तमहं हन्याम् इति. एकदा स शुको मृतः. तदा सर्वे दासाः कोऽधुना नृपाय कथयेत् इति चिन्तयन्तो रुदन्. अहं नृपाय कथयिष्यामि इति भाषित्वा कश्चित् धीमान् दासः नृपाय अब्रवीत्. हे भूभृत् तव प्रियः शुकः सर्वदैव स्वपिति. न किञ्चित् ब्रवीति न किञ्चित् अन्नम् अत्ति न वा श्वसिति इति. नृपो पृच्छत् सः शुको जीवति वा मृतो वा इति. दासो वदत् तदहं न वेद्मि. नृपो ब्रवीत् यो न ब्रवीति नान्नमत्ति न वा श्वसिति स मृतः एव इति. दासो ब्रूत भवान् सत्यमब्रवीत् इति.